इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी अद्य पूर्वाह्ने 11 वादने स्वीय मन की बात इति कार्यक्रमे देशवासिभ्यः साकं विचार विनिमयं करिष्यति। मन की बात इति मासिक कार्यक्रमस्य इदं नूतनं संस्करणं भविता। अस्य कार्यक्रमस्य प्रसारणं आकाशवाण्याः दूरदर्शनस्य च सर्वाभिः वाहिनीभिः प्रसारिष्यते। अयं कार्यक्रमः आकाशवाणी दूरदर्शनं प्रधानमन्त्री कार्यालयः सूचना प्रसारण मन्त्रालयः इत्येतेषां यूट्यूब वाहिनीष्वपि द्रष्टुं शक्यते इति। प्रधानमन्त्रिणः सम्बोधनानन्तरम् अनुक्षणम् अयं कार्यक्रमः क्षेत्रीय भाषास्वपि श्रोतुं शक्यते। क्षेत्रीय भाषासु अस्य पुनः प्रसारणं रात्रौ 8 वादने भविता। प्रधानमन्त्री नरेन्द्रमोदी अद्य महाराष्ट्रे 2,11,000 कोटिरूप्यकाणां विविध परियोजनानाम् उद्घाटनं राष्ट्राय समर्पणं च आभासीय माध्यमेन करिष्यति। सः जिला न्यायालयात् स्वर्गेट पर्यन्तं पुणे मेट्रो रेलयानखण्डस्य उद्घाटनं करिष्यति, यस्मिन् पुणे मेट्रो रेल परियोजनायाः प्रथमचरणस्य अपि समाप्तिः भविष्यति। प्रधानमन्त्री पुणे मेट्रो रेलयान प्रथमचरणस्य स्वर्गेट कटराज विस्तारस्य आधारशिलापि स्थापयिष्यति, यस्य विकासः प्रायः 55,900,000,000 रूप्यकाणां व्ययेन भविष्यति। जम्मूकश्मीरे विधानसभा निर्वाचनस्य तृतीयाय अन्तिमाय च चरणाय प्रचाराभियानम् अद्य सायं समाप्तिं यास्यति। जम्मूकश्मीरे एतस्मिन् अन्तिम चरणे 40 विधानसभाक्षेत्रेभ्यः मंगलवासरे मतदानं भविष्यति। मतदातृन् आक्रष्टुं विभिन्नानां राजनीतिकदलानां नेतारः जनसभाः पथप्रदर्शन्यः च कुर्वन्ति। तत्रैव हरियाणायां 90 विधानसभासनेभ्यः मतदानं अक्टूबरमासस्य 5मे दिनांके सुनिश्चितमस्ति। राज्येऽस्मिन् अपि प्रचाराभियानं तीव्रं जातम्। जम्मूकश्मीरे भाजपेति दलस्य वरिष्ठो नेता प्रधानमन्त्री नरेन्द्रमोदी च ह्यः समभाषयत् यत् जम्मूकश्मीरस्य जनाः शान्तिं स्वसन्तानेभ्यः उत्तमं भविष्यं च इच्छन्ति इति। जम्मूनगरे नैर्वाचनिक जनसमारोहं सम्बोधयन् असौ अघोषयत् यत् विधानसभा निर्वाचनस्य अन्तिमयोः चरणयोः महत् मतदानम् अस्य प्रमाणमस्ति इति। अत्रावसरे श्रीमोदी न्यगादीत् यत् कांग्रेस दलं कदापि तेषाम् आदरं कर्तुं न शक्नोति, ये देशाय म्रियन्ते। अयमस्ति कांग्रेस दलस्य पक्षः यः अस्माकं सैन्यपरिवारान् 4 दशकान् यावत् एकं पदं एकं निवृत्तिवेतनम् इति उत्कण्ठयत्। श्रीमोदी अवदत् यत् 4,10,000 तमे वर्षे तस्य सर्वकारस्य निर्माणानन्तरं ओआरओपी इतीदं कार्यान्वयत् इति। असौ अग्रे ख्यापितवान् यत् अद्यावधि सैन्य परिवारेभ्यः 20,000,000,000,000 धनं प्रदत्तमस्ति। 16,000,000 तमे वर्षे अस्मिन् दिने एव भारतं पाकिस्तानं विरुध्य सर्जिकल स्ट्राइक इति भीषणाक्रमणम् अकरोत् इति प्रधानमन्त्रिणा स्मृतम्। विदेशमन्त्री डॉ एस जयशंकरः उक्तवान् यत् पाकिस्तानस्य सीम्नः पारम् आतंकवादस्य नीतिः कदापि सफला न भविष्यति, तथा च कार्याणां परिणामः अवश्यमेव प्राप्स्यति। सः न्यूयॉर्क नगरे संयुक्तराष्ट्रसंघस्य महासभायाः 79वें अधिवेशने सम्बोधयनासीत्। जापानदेशे विश्व एथलेटिक्स महाद्वीपीय यात्रायाः पुरुषाणां 5,000 मीटर परिमितं धावने 26वर्षीयः भारतीय क्रीडकः गुलवीरसिंहः स्वर्णपदकं सम्प्राप्तवान् इति वार्ता।